पृष्ठ संख्या एक, ईशावास्योपनिषद कर्म संहिता पाठः अथ चत्वारविंशोऽध्यायः। ईशावास्यमिदं सर्वं यदकिंच जगत्यां जगत् तेन त्यक्तेन भुञ्जिथा मा गृध कस्यस्विदधनं कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे। असुर्या नाम ते लोका अन्धेन तमसावृताः तांस्ते प्रत्याभिगच्छन्ति ये के चात्महनो जनाः। अनेजदेकं मनसो जवीयो नैनद आप्नुवन् देवार्षमर्षत तदधावतो अन्यान्त्येति तिष्ठत् तस्मिन् अपि मातरिष्वा दधाति तदेजति तन्नैजति तद्दूरे तदु अन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः यस्तु सर्वाणि भूतान्या आत्मन्येवानुपश्यति सर्वभूतेषु चात्मनां ततो न विजुगुप्स्यते। यस्मिन् सर्वाणि भूतान्यात्मैवाभूतविजानतः तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः। सपर्यागच्छु क्रमकायं व्रणमसन्नाविरं